ॐ स्वरूपाय नमः। ॐ श्री सद्गुरवे नमः। ॐ वाम आसन्नसोः प्राणश्चक्षुरश्नोः श्रोत्रं कर्णयोः अपलिताः केशा अशोणा दन्ता बहुबाहोर्बलम् ऊर्वोरोजो जङ्घयोर्जवः पादयोः प्रतिष्ठा अरिष्टानि मे सर्वात्मानि भ्रष्टः तनुस्तन्वा मे सहे दत्तः सर्वमायूरशीय स्योनं मे सीदपुरुः पृणस्व पवमानस्वर्गे प्रियं माकृणु देवेषु प्रियं राजसु माकृणु प्रियं सर्वस्य पश्यत उत शूद्र उत आर्ये तच्चक्षुर्देवहितं पुरस्तात् शुक्रमुच्चरत पश्येम शरदशतं जीवेम शरदशतं शृणुयाम शरदशतं प्रब्रवाम शरदशतं अदीनाः स्यां शरदशतं भूयश्च शरदशतात्। शान्ति शान्ति शान्तिः।